श्री सीताराम स्तोत्रम् अयोध्यापुरनेतारम्
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 मिथिलापुरनायिकाम्
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 राघवाणामलङ्कारम्
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 वैदेहानामलङ्क्रियाम्
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 अयोध्यापुरनेतारम्
मिथिलापुरनायिकाम्
राघवाणामलङ्कारम्
वैदेहानामलङ्क्रियाम्
रघूणां कुलदीपं च
रघूणां कुलदीपं च
रघूणां कुलदीपं च
निमीनां कुलदीपिकां
निमीनां कुलदीपिकां
निमीनां कुलदीपिकां
सूर्यवंशसमुद्भूतम्
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 सोमवंशसमुद्भवाम्
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 रघूणां कुलदीपं च
निमीनां कुलदीपिकां
सूर्यवंशसमुद्भूतम्
सोमवंशसमुद्भवाम्
पुत्रं दशरथस्याद्यम्
पुत्रं दशरथस्याद्यम्
पुत्रं दशरथस्याद्यम्
पुत्रीं जनकभूपतेः
पुत्रीं जनकभूपतेः
पुत्रीं जनकभूपतेः
वसिष्ठानुमताचारम्
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 शतानन्दमदानुगाम्
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 पुत्रं दशरथस्याद्यम्
पुत्रीं जनकभूपतेः
वसिष्ठानुमताचारम्
शतानन्दमदानुगाम्
कौसल्या गर्भसम्भूतम्
कौसल्या गर्भसम्भूतम्
कौसल्या गर्भसम्भूतम्
वेदि गर्भोदितां स्वयम्
वेदि गर्भोदितां स्वयम्
वेदि गर्भोदितां स्वयम्
पुण्डरीकविशालाक्षम्
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 स्फुरदिन्दीवरेक्षणाम्
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 कौसल्या गर्भसम्भूतम्
वेदि गर्भोदितां स्वयम्
पुण्डरीकविशालाक्षम्
स्फुरदिन्दीवरेक्षणाम्
चन्द्रकान्ताननां भोजम्
चन्द्रकान्ताननां भोजम्
चन्द्रकान्ताननां भोजम्
चन्द्रबिम्बोपमाननां
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 मत्तमातङ्गगमनम्
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 मत्तहंसवधूगताम्
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 चन्द्रकान्ताननां भोजम्
चन्द्रबिम्बोपमाननां
मत्तमातङ्गगमनम्
मत्तहंसवधूगताम्
चन्द्रनार्द्रभुजामध्यम्
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 कुङ्कुमार्द्रकुचस्थलीम्
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 चापालङ्कृतहस्ताब्जम्
चापालङ्कृतहस्ताब्जम्
चापालङ्कृतहस्ताब्जम् पद्मालङ्कृतपाणिकाम्
पद्मालङ्कृतपाणिकाम्
पद्मालङ्कृतपाणिकाम् चन्द्रनार्द्रभुजामध्यम् कुङ्कुमार्द्रकुचस्थलीम् चापालङ्कृतहस्ताब्जम् पद्मालङ्कृतपाणिका शरणागतगोप्तारम् 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 प्रणिपादप्रसादिकाम् 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 कालमेघनिभम् रामम् कालमेघनिभम् रामम् कालमेघनिभम् रामम् कार्तस्वरसमप्रभाम् 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 शरणागतगोप्तारम् प्रणिपादप्रसादिकाम् कालमेघनिभम् रामम् कार्तस्वरसमप्रभाम् दिव्यसिंहासनासीनम् 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 दिव्यस्रग्वस्त्रभूषणाम् 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 अनुक्षणम् कटाक्षाभ्याम् अनुक्षणम् कटाक्षाभ्याम् अनुक्षणम् कटाक्षाभ्याम् अन्योन्येक्षणकाङ्क्षिणौ 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 दिव्यसिंहासनासीनम् दिव्यस्रग्वस्त्रभूषणाम् अनुक्षणम् कटाक्षाभ्याम् अन्योन्येक्षणकाङ्क्षिणौ अन्योन्यसदृशाकारौ 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 त्रैलोक्यगृहदम्पती 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 इमौ युवां प्रणम्याहम् इमौ युवां प्रणम्याहम् इमौ युवां प्रणम्याहम् भजाम् यद्यकृतार्थताम् भजाम् यद्यकृतार्थताम् भजाम् यद्यकृतार्थताम् अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पती इमौ युवां प्रणम्याहम् भजाम् यद्यकृतार्थताम् अनेन स्तौति यस्तुत्यम् अनेन स्तौति यस्तुत्यम् अनेन स्तौति यस्तुत्यम् रामं सीतां च भक्तितः रामं सीतां च भक्तितः रामं सीतां च भक्तितः तस्य तौ तनुतां पुण्याः तस्य तौ तनुतां पुण्याः तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थदाः सम्पदः सकलार्थदाः सम्पदः सकलार्थदाः अनेन स्तौति यस्तुत्यम् रामं सीतां च भक्तितः तस्य तौ तनुतां पुण्या सम्पदः सकलार्थदाः एवं श्रीरामचन्द्रस्य एवं श्रीरामचन्द्रस्य एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः जानक्याश्च विशेषतः जानक्याश्च विशेषतः कृतं हनुमता पुण्यम् कृतं हनुमता पुण्यम् कृतं हनुमता पुण्यम् स्तोत्रं सद्यो विमुक्तिदम् स्तोत्रं सद्यो विमुक्तिदम् स्तोत्रम् सद्यो विमुक्तिदम् यः पठेत् प्रातरुत्थाय यः पठेत् प्रातरुत्थाय यः पठेत् प्रातरुत्थाय सर्वान् कामान् अवाप्नुयात् सर्वान् कामान् अवाप्नुयात् सर्वान् कामान् अवाप्नुयात् एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः कृतम् हनुमता पुण्यम् स्तोत्रम् सद्यो विमुक्तिदम् यः पठेत् प्रातरुत्थाय सर्वान् कामान् अवाप्नुयात् इति श्रीसीतारामस्तोत्रम् सम्पूर्णम्।